इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रतिपादितं यत् सिन्दूराभियानस्य अस्थायीरूपेण स्थगनं कोऽपि निष्कर्षः नैवास्ति, यतोहि भारतम् आगामीषु दिवसेषु पाकिस्तान देशस्य प्रत्येकस्य सम्भाव्यपदक्षेपस्य आकलनं करिष्यति, यस्तु इदं सुनिश्चीयते यत् तस्य भविष्यस्य पदक्षेपः तस्य प्रतिबद्धतानुरूपं स्यादिति। ह्यः सायंकाले दृश्य श्रव्य परान्तर्जालीय सन्देशे राष्ट्रं सम्बोधयन् प्रधानमन्त्री अभिव्यक्तवान् यत् सिन्दूराभियानस्य आरम्भस्य प्रथमेषु त्रिषु दिवसेषु पाकिस्तानदेशः अपेक्षितात् इतोऽपि अधिकं हानिं प्राप्नोत्। श्रीमोदी अग्रे प्रावोचत् यत् भारतस्य आक्रामकयुतानां प्रत्युत्तर कार्याचरणानाम् अनन्तरं पाकिस्तानदेशः स्वव्याकुलतां न्यूनीकर्तुम् उपायान् अन्वेष्टुं प्रयासान् आरब्धवान्, अथ च वर्धमानां स्वव्याकुलतां दूरीकर्तुं वैश्विक समुदायं समाहूतवान्। प्रधानमन्त्रिणा भारतस्य सुरक्षा सिद्धान्तस्य त्रयः प्रमुखाः स्तम्भाः रेखाङ्किताः। तेष्वेव प्रथमः स्तम्भः निर्णायकं प्रत्युत्तर संवलितं कार्याचरणमिति वर्तते।
पहला, भारत पर आतंकी हमला हुआ तो मुंह तोड़ जवाब दिया जाएगा, हम अपने तरीके से अपनी शर्तों पर जवाब देकर रहेंगे, हर उस जगह जाकर कठोर कार्रवाई करेंगे जहां से आतंकी जड़ें निकलती हैं। दूसरा, कोई भी न्यूक्लियर ब्लैकमेल भारत नहीं सहेगा। न्यूक्लियर ब्लैकमेल की आड़ में पनप रहे आतंकी ठिकानों पर भारत सटीक और निर्णायक प्रहार करेगा। तीसरा, हम आतंक की सरपरस्त सरकार और आतंक के आकाओं को अलग अलग नहीं देखेंगे। ऑपरेशन सिंदूर के दौरान दुनिया ने पाकिस्तान का वो घिनौना सच फिर देखा है जब मारे गए आतंकियों को विदाई देने पाकिस्तानी सेना के बड़े बड़े अफसर उमड़ पड़े।
अत्रावधौ श्रीमोदी विश्वाय कठोर सन्देशं प्रेषितवान् यत् पाकिस्तान देशेन सह कापि चर्चा केवलम् आतंकवादे केन्द्रिता भविष्यति, तथा च पाकिस्तानेन सह कापि चर्चा पाकिस्तानाधिकृत कश्मीरैव आधारिता भविष्यति। वायु संचालन महानिदेशक एयर मार्शल एके भारती इत्येषः सबलतया कथितवान् यत् भारतस्य संघर्षः आतंकवादीनां विरुद्धं तेषाञ्च समर्थनपरायाः आधारभूतावसंरचनायाः विरुद्धं वर्तते, न तु पाकिस्तानदेशस्य सेनया सह इति। असौ अवदत् यत् दुःखवहो विषयो वर्तते यत् पाकिस्तानदेशीया सेना हस्तक्षेपं कृत्वा आतंकवादीनां पक्षं स्वीकृतवती, येन कारणेन भारतीय सशस्त्रबलैः तादृशमेव प्रत्युत्तरं प्रदातुं बाध्यं जातम्। ह्यः नवदिल्ल्यां सिन्दूराभियानं विषयम् अवलम्ब्य वार्ताहरान् संसूचयन् एयर मार्शल भारती इत्ययं सूचितवान् यत् सिन्दूराभियानावधौ भारतीय सेनया देशस्य नागरिकाः सैन्यसंरचनाः च केनापि प्रकारेण न्यूनातिन्यूनं हानिः प्रदत्ताः। गृहमन्त्री अमितशाहः भारतीय सशस्त्रबलानाम् अतुल्य शूरतायाः अभिवादनं कृत्वा तानि देशस्य कवचं शत्रुविनाशकं चेति उक्तवान्। सामाजिक सन्देश पटले श्रीशाहः पहलगामातंक्याक्रमणे मृतान् जनान् न्यायं प्रदातुम् अनुकरणीय नेतृत्वयुताय प्रधानमन्त्रिणे नरेन्द्रमोदिने वर्धापनानि अयच्छत्। भारतीय जनता पार्टीति दलं सिन्दूराभियानस्य प्राप्त सफलतायाः अनन्तरं समग्रे हि देशे तिरंगा यात्रायाः प्रारम्भं करिष्यति। अस्य मासस्य 23 दिनांकं यावत् इयं यात्रा प्रचलिष्यति। बीसीसीआई इत्यनेन समुद्घोषितं यत् इण्डियन प्रीमियर लीग इति क्रिकेट प्रतिस्पर्धा अस्य मासस्य 17 दिनांके पुनः समारप्स्यति, यतोहि इयं स्पर्धा मालिका भारत पाकिस्तान देशयोर्मध्ये जातस्य संघर्षस्य कारणेन आसप्ताहं यावत् स्थगिता जाता इति वार्ताः।